इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। निर्वाचनायोगः स्वकीये व्यवफलके विशिष्टानुक्रमानुसारं निर्वाचनानुबन्धानां विवरणं प्रस्तौति। सर्वोच्चन्यायालयस्य आदेशानन्तरं SBI इति वित्तकोषेन केन दलेन कति धनानुबन्धानि प्राप्तानीति प्रकाशितमासीत्। तदनन्तरं निर्वाचनायोगेनापि प्रख्यापितमस्ति यत् धनानुबन्धानां सम्प्राप्तेः विवरणम् आयोगस्य व्यवफलके प्रकाश्यते, येन जनाः सुगमतया ज्ञातुं प्रभवन्ति यत् केन दलेन कस्मात् कति राशिः सम्प्राप्तः इति। अत्र ध्यातव्यमस्ति यत् केवलं स्टेट बैंक ऑफ इंडिया इत्याख्यः वित्तकोषः एव प्राधिकृतः अस्ति एतेषां वित्तानुबन्धानां विक्रणाय। लोकसभानिर्वाचनाय प्रथमचरणीय मतदाने प्रत्याशीभूताः जनाः सजवं नामांकनं प्रपूरयन्ति। चरणेऽस्मिन् 17 राज्यानां 4 केन्द्रशासित प्रदेशानां च 2.5 लोकसभाक्षेत्रेभ्यः मतदानं भविता। केन्द्रीयमन्त्रिणा जितेन्द्रसिंहेन ह्यः ऊधमपुर लोकसभायै नामांकनं पूरितम्। अत्र अप्रैल मासस्य 21 मतदानं भविष्यति। निशीथ प्रामाणिकेनापि कूचबिहार मण्डलाध्यक्षस्य कार्यालये नामांकनं पूरितम्। सोऽपि साम्प्रतिकः केन्द्रीयमन्त्री अस्ति। अनेनैव प्रकारेण अन्यैः नेतृभिः अपि नामांकनानि पूरितानि। भारतदेशः स्वदेशीयानां जनानां हेतितः डोमिनिक गणराज्यं यावत् निर्मुक्तये इन्द्रावती अभियानम् आयोजति। एकस्मिन् आन्तर्जालिक सन्देशपटले विदेशमन्त्रिणा डॉ एस जयशंकरेण प्रोक्तं यत् 12 भारतीयाः निष्कासिताः सन्ति। तेनोक्तं यत् भारतदेशः स्वदेशीयानां नागरिकाणां सुरक्षायै सर्वदैव सन्नद्धः अस्ति इति। दिल्ली इति केन्द्रशासित प्रदेशस्य मुख्यमन्त्री अरविन्द केजरीवालः मद्यनीति अनियमितताख्ये भ्रष्टाचारिक प्रकरणे प्रवर्तन निदेशालयेन निगडितः। मुख्यमन्त्रिणा सर्वमपि प्रकरणम् अविधिसम्मतं राजनैतिकञ्च अस्तीति उक्त्वा निरस्तीकृतम्। आप इति दलस्य नेतृणा आतिशी मार्लेना इत्यनया प्रोक्तमस्ति यत् सर्वमपि प्रकरणं विरुध्य दलं सर्वोच्चन्यायालयं प्रति यातीति। एतन्मध्ये वरिष्ठ भाजपादलनेत्रा रविशंकर प्रसादेन भणितं यत् एतत् सर्वमपि भ्रष्टाचारं विरुध्य भवति। अत्र द्रष्टव्यमस्ति न्यायालयः अग्रे किं करोतीति। वियतनाम देशस्य राष्ट्रपतिः वो वैन थुआंग भ्रष्टाचारस्य आरोपानन्तरं त्यागपत्रं दत्तवान्। तस्य निर्वाचनं वर्षैकं प्राक् जातासीत्। तस्य त्यागपत्रं वियतनाम देशस्य कम्युनिस्ट पार्टी इत्यनेन स्वीकृतमस्ति। एकस्मिन् वक्तव्ये कम्युनिस्ट प्रशासनेन प्रोक्तमस्ति यत् थुओंग इत्यनेन दलस्य नियमाः उल्लंघिताः सन्ति। भ्रष्टाचाराधारेण वर्षद्वये त्यागपत्रदातृणां राष्ट्रपतिभ्यां थुओंगः द्वितीयः अस्ति। अपि च अन्ते क्रीडावार्तायाम्, स्विस ओपन बैडमिंटन इति स्पर्धायां जी गोपीचंद अथ टी जॉली इत्येताभ्यां क्रीडिकाभ्यां युगलं प्रागुपान्तचक्रं प्राविशत्। ह्यः एव भारतस्य प्रियांशु राजावतः पुरुषवर्गीय क्रीडायां अस्यामेव स्पर्धायां उपान्तचक्रं प्राविशत्। तेन चीनदेशस्य लॉन्ग सी लेई इत्याख्यः क्रीडकः पराजितः इति वार्ताः।